अथ भौम मङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्। अथ भौममङ्गलस्तोत्रम्। भौमो दक्षिण दिक्त्रिकोण यम दिग्विघ्नेश्वरो रक्तभा स्वामी वृश्चिकमेषयो सुरगुरुश्चार्क शशी सौहृदा ग्यौरीषट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते भारद्वाजकुलोद्भव क्षितिसुत कुर्यात् सदा मङ्गलम्। इति भौममङ्गलस्तोत्रम् समाप्तम्।